ओम नमो भगवते वासुदेवाय। अथ षोडशोऽध्यायः। राजोवाच, उक्तस्त्वया भूमण्डलायाम विशेषो यावदादित्यस्तपति यत्र जासौ ज्योतिषां गणैश्चन्द्रमा वासः दृश्यते तत्रापि प्रियव्रत रथ चरण परिघातैः सप्तभिः सप्तसिन्धव उपकृप्ता यत एतस्याः सप्तद्वीपविशेषविकल्पस्त्वया भगवन् खलु सूचित एतदेवाखिलमहम् मानतो लक्षणतश्च सर्वं विजिज्ञासामि। भगवतो गुणमये स्थूलरूप आवेशितं मनो यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षममावेशितुं तदुहैतद्गुरोर्हस्यनुवर्णयितुमिति। ऋषिरुवाच, न वै महाराज भगवतो मायागुणविभूतेः काष्ठां मनसा वचसा वाधिगन्तुमलं विबुधायुषापि पुरुषस्तस्मात् प्राधान्येनैव भूगोलकविशेषं नामरूपमानलक्षणतो व्याख्यास्यामः। यो वायं द्वीपः कुवलय कमलकोशाभ्यन्तरकोशो नियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रम् यस्मिन्नववर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति। एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजो मेरुद्वीपायाम समुन्नाहः कर्णिकाभूतः कुवलय कमलस्य मूर्धनि द्वात्रिंशत् सहस्रयोजनवितो मूले षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्टः। उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयो रम्यक हिरण्यमयकुरूणां वर्षाणां मर्यादागिरयः। प्रागायता उभयतः क्षारोदावधयो द्विसहस्रपृथव एकैकशः पूर्वस्मात् पूर्वस्मादुत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति। एवं दक्षिणे नेलावृतं निषदो हेमकूटो हिमालय इति प्रागायता यथा नीलादयो युतयो जनोत्सेधा हरिवर्ष किं पुरुषभारतानां यथा सङ्ख्यम् तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादना वा नीलनिषधायतौ द्विसहस्रं पप्रथतुः। केतुमालभद्राश्वयोः सीमानं विदधाते मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाः मेरोश्चतुर्दिशमवष्टं भगिरय उपक्लृप्ताः चतुर्श्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वारः पादपप्रवराः पर्वतकेतव इवाधिसहस्रयोजनोन्नाहास्तावद्विटपविततयः शतयोजनपरिणाहाः हृदाश्चत्वारः पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति। देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतो भद्रमिति। येष्वमरपरिवृढाः सहसुरललना ललामयूथपतय उपदेवगणैरुपगीयमानमहिमानः किल विहरन्ति। मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति। तेषां विशीर्यमाणानामतिमधुरसुरभि सुगन्धिबहुलारुणरसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान्निपतन्ति। पूर्वेणेलावृतमुपप्लावयति यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्शसुगन्धवातोदशयोजनं समन्तादनुवासयति। एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकाय निभानां रसेन जम्बूनाम नदी मेरुमन्दरशिखरादयुतयोजनादवनितले निपतन्ति। दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दयति तावदुभयोरपि रोधसौर्या मृत्तिका तद्रसेनानुविध्यमाना वायुवर्कसंयोगविपाकेन सदा मरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति। यदुह वाव विभुतादयः सह युवतिभिर्मुकुटकटककटिसूत्राद्याभरणरूपेण खलु धारयन्ति। यस्तु महाकदम्बः सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः पञ्चमधुधाराः सुपार्श्वशिखरात् पतन्त्योपरेणात्मानमिलावृतमनुमोदयन्ति। यायुपयुञ्जानानां मुखनिर्वासितो वायुसमन्ताच्छतयोजनमनुवासयति। एवं कुमुदनिरूढो यः शतवर्षो नाम वटस्तस्य स्कन्धेभ्यो नीचीनाः पयोदधिमधुघृतगुडान्नाद्यं बलशय्यासनाभरणादयः सर्व एव कामदुघानदाः कुमुदाग्रात् पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति। यानुपजुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लमस्वेददौर्गन्ध्यजरामयमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषाभवन्ति यावज्जीवम् सुखम् निरतिशयमेव। कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचकनिषदशिनीवासकपिलसङ्खवैदुर्यजारुधिहंसर्षभ नागकालञ्जरनारदादयो विंशतिगिरयो मेरोः कर्णिकाया इवकेसरभूता मूलदेशे परितोपक्लृप्ताः। जठरदेवकूटौ मेरुम् पूर्वेणाष्टादशयोजनसहस्रमुदगायतौ 2000 पृथुतुङ्गौ भवतः। एवमपरेण पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ प्रागायतावेवमुत्तरतस्त्रिसृङ्गमकरावष्टभिरेतैः परिस्थितोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः। मेरोर्मूर्धनि भगवतात्मयोनिर्मध्यत उपक्लृप्ताम् पुरीमयुतयोजनसाहस्रीम् समचतुरस्राम् शातकौम् भीम् वदन्ति। तामनुपरितो लोकपालानामष्टानाम् यथा दिशम् यथा रूपम् तुरीयमानेन पुरोष्टावुपक्लृप्ताः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चमस्कन्धे भुवनकोशवर्णनम् नाम 16 श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।